इमान्धिरम् सप्तशे अर्ष्णेम् पिदादरत प्रजाताम् ब्रहदेव विन्दत तुरेजम् स्विज्जनयद्विश्वजम् जोजास्य उक्षमिन्द्राजशंसन् ऋतम् शंसन् दरुजदेध्यानादिवस्पुत्रासो असुरस्य वीराः विप्रम् पदमङ्गिरसो दधानायज्ञस्य धाव प्रथमम् मनन्त हंसैरिव सखिभिर्वावदद्भिरश्मन्मजानिनहनाभ्यस्यन् बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौ दच्च विद्वाम् अगायत अवोद्वाभ्याम् पर एकजाका गुहातिष्ठन्तेरनृतस्य सेतौ बृहस्पतिस्तमसि ज्योतिरिच्छन्नु दुस्रा आकरभिः दुस्र आवाह विभिद्यापुरम् शजथेमवाचेन्निस्त्रेणि साकमुदधेन ग्रन्थत बृहस्पतिरुषसंसौर्यङ्गामर्कम् विवेदस्तनयन्निमद्यौः इन्द्रो बलम् रक्षिता रन्दुघानाम् करेणेव वि च कर्तारवेण स्वेदाञ्जिभिराशिरमिच्छमानोरो दयत्पणिमागा अमुष्णात् स ईम् सत्येभिः सखिभिः शुचद्भिर्गोधाज संविधनसैरदर्दः ब्रह्मणस्पदरवृषभिरवराहयेर्घर्मस्वेदेभिर्द्रविडम् व्यानट ते सत्येन मनसा गोपतिङ्गा इजाना स इषणयन्तधीभिः बृहस्पतिर्भिथो अवद्यपेभिरुदुश्रिया असृजत स्वजुग्भिः तम् वर्धयन्तामदिभिः शिवाभिः सिंहविमनानदतम् सधस्थे बृहस्पतिम् वृषणम् शूरसातौ भरे भरे अनुमदेव जिष्टाम् यदा वाजमसनद्विश्वरोपमाद्यामरुक्षदुत्तराणि सद्म बृहस्पतिम् वृषणम् वर्धयन्तो नानासन्तो बिभ्रतो ज्योतिरासा सत्यावाशिषम् कृणुतावजोधैकेरञ्चिद्यवधस्वेभिरेवैः पश्चामृधो अपभवन्त विश्वास्तद्रो ओदसे शृणुतम् विश्वमिन्वे इन्द्रो मह्नामहतो अर्णवस्य विभोर्धानमभिनदर्बुदस्य अहन्न हि मरिणात्सप्तसिन्धो अन्देवैर्द्या वा पृथिवे प्रावदन्नः